ततो युद्ध परिश्रांतं समरे चिंतया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतैश्च समागम्य द्रष्टुं अभ्यागतारणम् उपागम्याब्रवीत् रामं अगस्त्यो भगवान् ऋषिः विजयिष्यसि आदित्य हृदयं पुण्यं सर्वशत्रुविनाशनम् जयावहं जपे नित्यं अक्षयो परमं शिवम् सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाम शोक प्रशमनम् आयुर्वर्धनमुत्तमम् रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतं पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरं सर्वदेवात्मको ह्येष तेजस्वीरश्मिभावनः येष देवासुरगणान् लोकान् पाति गभस्तिभिः येष ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साक्षायस्विनौ मरुतो मनुः वायुर्वह्निः प्रजा प्राणा ऋतुगर्ता प्रभाकरः आदित्य सविता सूर्य खग पूषा गभस्तिमा सुवर्ण सदृशो भानुर्हिरण्यरेता दिवाकरः हरिदश सहस्राक्षि सप्तशक्तिर्मरीचिवा शिरस्तपनो भास्करो रविः अग्निगर्भोदिते पुत्रः शङ्खस्य शिरनाशनः व्योमनाथस्तमो भेदि ऋग्यजुस्सामपारः घनवृष्टिरपामित्रो विन्ध्यवीति प्लवं गमः आतपी मण्डली मृत्युः पिङ्गल सर्वतापनः कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणामदिवो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्म नमोऽस्तु ते नमोऽस्तु ते ज्योतिर्गणानां पतये दिनाधिपतये नमः। जयाय जय भद्राय हर्यश्राय नमो नमः। नमो नमः सहस्रांशाय आदित्याय नमो नमः। नमः उग्राय वीराय सारंगाय नमो नमः। नमः पद्मप्रबोधाय शत्रुघ्नाय मितात्मने कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः। सप्तचामीकराभाय वसये विश्वकर्मणे नमस्तमोभिः ऋचये लोकसाक्षिणे। नाशयद्वेषवैभूतं तदेव सृजति प्रभुः। पायत्येष तपत्येष वर्षत्येष भवस्तिभिः। येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। येष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणा। क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्वैष रविः प्रभुः। येन मापत्सु पृच्छ्रीषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव। पूजयत्वैनमेकाग्रो देवदेवं जगत्पतिं। एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि। अस्मिन् क्षणे एतच्छ्रुत्वा महातेजा नष्टशोको भवत्तदा। धारयामास सुप्रीतो राघव प्रयतात्मा। आदित्यं प्रोक्ष्य जप्त्वा तु परं त्रिराचम्याशुचिर्भूत्वा धनुरादाय वीर्यवान्। रावणं प्रेक्ष्य ಸ್ವಾಯ ಸಮಪಾಗಮತ್ ಸರ್ವಯತ್ನೇನ ಮಹತಾವಧಿ ತಸ್ಯ ಕೃತೋ ಭವತು. ಅಧರ ವೀರವದ ನಿರೀಕ್ಷ ರಾಮಂ ಮುದಿತ ಮನಾಂ ಪರಮಂ ಪ್ರಹೃಷ್ಯ ಮಾನಃ ನಿತಿಚರ ಪತಿ ಸಂಕ್ಷಯಂ ವಿದಿತ್ವಾ ಸುರಗಣ ಮಧ್ಯ ಗತೋ ವಚಸ್ವರೇ